ताम् सुते कीर्तिम् माघवन्महित्वा यत्वा भीते रोदसी अह्वजेताम् रावो देवाम् आतिरोदासमोजः प्रजायै त्वस्यै यदशिक्ष इन्द्र यदशरस्तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु मायेत्सा तेजानि युद्धान्याहुर्नाद्य सत्रम् मनुपुरा विवित्से कवृते महिमनस्रमस्यास्मत्पूर्वर्षयोऽन्तमापुः यन्मातरम् च पितरम् च सागमजन यथास्तन्वा अस्वायाः चत्वारि ते असुर्यानिलामादाभ्यानि महिषस्य सन्ति त्वमङ्गतानि विश्वानि वित्सेयेभिः कर्माणि मघवम् च कथ त्वम् विश्वादधिषे केवलानि याम्याविर्या च गुहावसूनि कामलिङ्गे मघवन्मामिताधीस्त्वमाज्ञाता त्वमिन्द्रासिधाता यो अधाज्योतिषि ज्योतिरन्धर्यो अधिजन्मधूना संमधूनि अधप्रियम् सूषमिन्द्रायमन्न ब्रह्मकृतो मृगदुःखादवाचि